इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः आदौ मुख्याः वार्ताः राष्ट्रपतिः द्रौपदी मुर्मुः पुरी रथ यात्रा समारोहे गृहिण्यात् भागम् प्रधानमन्त्री नरेन्द्रमोदी श्वः प्रभृति त्रिदिवसीयः रूस आस्ट्रिया देशयोः आधिकारिक प्रवासक्रमे रतः स्यात् दक्षिण कश्मीरस्य कुलगाम जनपदे सुरक्षाबलेन आतंकवादिभिः सह संघर्षे षडातंकवादिनः व्यापादिताः अपि च क्रीडावार्तासु अद्य एशियन डबल स्क्वैश चैंपियनशिप क्रीडायां भारतस्य अभय सिंहः विजयम् अवाप्तवान् अथ वार्ताः विस्तरेण अद्य सायंकाले पञ्चवादने रथम् आकर्ष्य भगवतः पवित्रं दर्शनं प्राप्तुं विश्वस्य विभिन्नेभ्यः भागेभ्यः लक्षशः भक्ताः समागताः सन्ति श्रीजगन्नाथमन्दिरस्य सिंहद्वारस्य पुरतः रथः स्थितः अस्ति अयम् उत्सवः पवित्रस्त्रित्वस्य स्वमातुल्यगुडी च देव्याः मन्दिरं प्रति यात्रां निर्दिशति अष्टदिनानन्तरं तेषां पुनरागमनात् समाप्यते च ओडिशाराज्यस्य पुरीनगरस्य द्वादशशताब्द्याः श्रीजगन्नाथदेवालयात् भगवतः जगन्नाथः भगवतः बलभद्रः देवी सुभद्रा भगवतः सुदर्शनः च बाह्यलोकं प्रति दिव्ययात्रा अद्य अपराह्णे आरब्धा ढाडी पहण्डी इति नाम्नः विस्तृतविधिना सह यस्य शाब्दिकः अर्थः अस्ति यत् घण्टायाः काहली इत्यस्य तेंगी इत्यस्य च वाद्यानां नादस्य ध्वन्या सह अनेकानां भक्तानां सह गमनार्थं क्रमेण अग्रे गमिष्यताम् इति पुरी गजपति दिव्यसिंहदेवः त्रयाणां रथानाम् उपरि सुवर्णसम्मर्जनी द्वारा त्रयाणां रथानां पीठस्थानानि स्वच्छं कृत्वा चेरापाहनन्रा इति प्रदर्शनं करिष्यति अद्य सायंकाले चतुर्थदिनांकपर्यन्तं विधिः अवसीयते राष्ट्रपति द्रौपदी मुर्मू वर्यायाः कृते विशिष्ट सुरक्षा व्यवस्था अस्ति ओडिशा राज्यस्य राज्यपालस्य मुख्यमन्त्रिणः केन्द्रीयमन्त्रिणाम् अन्य विशिष्ट जनानां च कृते अतिविशिष्ट सुरक्षा व्यवस्थापि कृतास्ति प्रधानमन्त्री नरेन्द्रमोदी श्वः प्रभृति रूस आस्ट्रिया देशयोः आधिकारिक प्रवासक्रमे रतः स्यात् प्रधानमन्त्री नरेन्द्रमोदी जून मासस्य अष्टमे दशमे च दिनांकयोः रशिया देशस्य द्विदिनात्मके यात्राक्रमे देशद्वयगते शिखर सम्मेलने भागं गृह्णीयात् तत्र द्वयोः देशयोः बह्वायामपरस्य सम्बन्धस्य विस्तृत समीक्षायाः सम्भावना अस्ति एतस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी आस्ट्रिया देशं प्रति गन्तुं सिद्धं स्यात् भ्रमणस्यास्य प्रथमचरणे श्रीमोदी रूसदेशस्य राष्ट्रपति व्लादिमीर पुतिन इत्यस्य आमन्त्रणेन द्वाविंशतितमे भारत रूस वार्षिक शिखर सम्मेलने भागं गृह्णीयात् अस्यायोजनं मॉस्को नगरे भविता नेतारः द्वयोः देशयोः बहुपक्षीय सम्बन्धानां विषये समीक्षां कुर्युः तथा च परस्परहितस्य समकालीन क्षेत्रीय वैश्विक विषयेषु विचाराणाम् आदान प्रदानं कुर्युः रूस यात्रायाः समापनानन्तरं प्रधानमन्त्री मंगलवासरे आस्ट्रिया देशं यास्यति एकचत्वारिंशत् वर्षानन्तरं भारतीय प्रधानमन्त्रिणः आस्ट्रिया देशस्य प्रथमा यात्रा भवेत् दक्षिण कश्मीरस्य कुलगाम जनपदे सुरक्षाबलेन आतंकवादिभिः सह संघर्षे षडातंकवादिनः व्यापादिताः फ्रिसल चिन्नीगाम क्षेत्रे एवं मोटेर गाम जनपदे अयं संघर्षः ह्यः मध्याह्ने समारब्धः यदा आरक्षिदलेन आतंकवादिनां आस्थानस्य सूचना प्राप्ता आरक्षक महानिदेशकेन आर स्वैनेन वार्ताहरैः सह संवादे एतत् पुष्टीकृतम् अस्मिन् संघर्षे द्वौ सुरक्षा अधिकारिणौ अपि मृत्युं प्राप्तवन्तौ। अत्रान्तरे मोटेर गामस्थले एवं फ्रिसिल चिन्नी गाम क्षेत्रे इत्युभयोः संघर्षस्थलयोः अद्यापि अभियानं यथावस्थमेव प्रचालितम्। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। तमिलनाडु राज्ये आर्मस्ट्रांग इत्यस्य हनन प्रकरणे बसपा प्रमुख मायावती सीबीआई अन्वेषणस्य याचनाम् अकरोत्। अद्य चेन्नई नगरे पार्थिवदेहाय पुष्पाञ्जलि समर्पणानन्तरं तथा कथितं यत् तस्याः दलम् अस्य प्रकरणस्य निष्पक्षान्वेषणार्थं बलं प्रदास्यति। मायावतीम् अतिरिच्य इतोऽपि विभिन्न दलीयाः नेतारः दिवंगत नेतारं श्रद्धाञ्जलिं समर्पयितुं समागताः। संसदः वित्त संकल्पना सत्रस्य आरम्भः अस्य मासस्य द्वाविंशतिः दिनांकात् भविष्यति। संसदीय कार्याणां मन्त्री किरेन रिजिजुः एकस्मिन् सामाजिकान्तर्जालीय सन्देशमाध्यमेन सूचितवान् यत् सत्रम् अगस्त मासस्य द्वादश दिनांकपर्यन्तं निरन्तरं भविष्यति। सः अवदत् द्विसहस्रतम वर्षस्य केन्द्रीय वित्त संकल्पना पत्रं जुलाई 23 दिनांके लोकसभायां प्रस्तुतं भविष्यति। श्री रिजिजुः अवदत् यत् राष्ट्रपति द्रौपदी मुर्मू भारत सर्वकारस्य अनुशंसया वित्त संकल्पना सत्राय संसदः द्वयोः सदनयोः आह्वानस्य प्रस्तावस्य अनुमोदनं कृतवती। भारतीय ऋतु विज्ञान विभागेन अद्य उत्तराखण्डे प्रचण्ड वृष्टेः अनुमानः कृतः। सममेव उत्तरप्रदेश ओडिशा मध्यप्रदेश दक्षिण कर्नाटक राज्येषु च प्रचण्ड वृष्टेः अनुमानः कृतः। आगामिषु पञ्चदिवसेषु उत्तर पश्चिम मध्य भारतयोः मेघगर्जन सहितं प्रचण्ड वृष्टेः सम्भावना वर्तते। विभागस्यानुसारं श्वः यावत् असम मेघालयोः बुधवासरं यावत् पश्चिमबंग सिक्किम बिहार राज्येषु अथ गुरुवासर पर्यन्तं नागालैण्ड मणिपुर मिजोरम त्रिपुरा राज्येषु च प्रचण्ड वृष्टिः भवितुमर्हति। असम राज्ये जलौघस्थितौ अद्य किञ्चित् परिष्कारः समाप्तः। यद्यपि ऋतु विज्ञान विभागेन बराकोपत्यकायाम् अतिवृष्टेः अनुमानं व्यक्तीकृतम्। राज्ये प्रायशः 24,00,000 जनाः जलाप्लावेन प्रभाविताः समभवन्। 53 जनै 300 शिविरेषु शरणागतिः स्वीकृतास्ति। केन्द्रीय मन्त्री एवं वरिष्ठ भाजपा नेता पीयूष गोयलः प्रोक्तवान् यत् जनैः एनडीए सर्वकाराय यः जनादेशः प्रदत्तः सः सर्वकारस्य विगत दशवर्षेषु कृतकार्याणां परिणामः अस्ति। दिल्ली भाजपायाः विस्तृत कार्यकारिण्योपवेशनस्य उद्घाटनसत्रे स्वीय सम्बोधनावसरे श्रीगोयलेन कथितं यत् मोदी सर्वकारेण विभिन्न योजनानां कार्यान्वयनेन देशः परिवर्तितः। श्रीगोयलेन विज्ञापितं यत् प्रधानमन्त्रिणा स्वीय तृतीय कार्यकाले देशे त्रिस्तरीय विकासस्य निर्णयः कृतः। कांग्रेस दलम् आलक्ष्य कटाक्षं कुर्वन् श्रीगोयलेन कथितं यत् निर्वाचनेषु देशस्य जनैः विपक्षस्य निराकरणं कृतम्। उपवेशनेऽस्मिन् बीजेपी सांसदः मनोज तिवारी रामवीर सिंह विदुड़ी इत्येतौ समेत्य अन्येऽपि दलनेतारः उपस्थिताः आसन्। अद्य एशियन डबल स्क्वैश चैंपियनशिप क्रीडायां भारतस्य अभय सिंहः विजयम् अवाप्तवान्। पुरुषयुगलस्य अभय बेलावन सेंथी कुल्मा युगलम् पुरुषयुगलस्य अन्तिमस्पर्धायां मलेशियादेशस्य ऑंग साई हंग सेफेफ कमल इत्युभाभ्यां सह स्पर्धितवान् इति वार्ताः।